अया भीति परिश्रमयस्ता इन्दोमदेष्वा अवाहन्नवतीर्णव पुरस्सज्जयित्वाधीये दिवो दासाय संवरम् अधत्यम् दुर्वसं यदुम् परेणो अश्वमश्वविद्गोमादिन्दो हिरण्यवत् क्षरा सहस्रिणीरिषाः पवमानस्य ते वयम् पवित्रामभ्यम् ददः सखित्वमावृणीमहे एते पवित्रमूर्मयो भिक्षरम् द्विधाराया तेभिर्न सोममृणय स नः पुनानाभाररयम् वीरवतीमिषम् ईशानस्वामविश्वताः एतमुत्यन्तसक्षिपो मृजन्ति सिन्धुमातरम् समादित्येभिरक्ष्यत स्वमिन्द्रे नोतवायुनाः सुतयेति पवित्रा स्वम् सूर्यस्य रश्मिभिः सनो भगाय वाजवे पूष्णे पवस्वमधूमान् चारुर्मित्रे वरुणे च उच्चाते जातमन्धसो दिविषध्वोम्याददे उग्रम् सर्वमहिश्रवाः येना विश्वान्यर्याद्युम्नानि मानुषाणाम् शिषा सन्तो वनामहे स न इन्द्राय यज्ज वे वरुणाय मरुध्याः हरिवो वित्परिश्रव उपोषु जातमब्दुरङ्गोभिर्भङ्गम् परिष्कृतम् निन्दुम् देवायासिषुः अमिद्वर्धन्तु नो गिरो वत्सम् संशिश्वरीव इन्द्रस्य हृदम् सनीः हर्षाणस्वमसङ्गवे दुःखस्वाभिप्युषीमिषम् वर्धा समुद्रमुख्यम् मानो अजीजनदिवश्चित्रम् नतम् यतम् ज्योतिर्वैश्वानरम् बृहत् पवमानस्य तेन सोमदो राजन्नदुच्छुनः विवारमव्यमर्षति पवमानरसस्तवदक्षो विराजति द्युमान् ज्योतिर्विश्वम् स्वदृशे यस्ते मदो वरेण्यस्तेनापवस्वान्धसा देवावीरघसम् सः जघ्निर्वृत्रमामित्रियम् सस्निर्वाजम् दिवे दिवे घोषावो अश्वसासि संविश्वो अर्षो भवसु भस्वाभिर्न धेनुभिः श्रीरम् चेनो नयो निमा स्वजाभिथेन्द्रम् वृत्राय हन्तवे मृवांसम् महीरपः सुवीरासो वयम् धनाजयेम सोममीध्वः पुनानो वर्धनो गिराः सोदासस्तवावसास्यामन्वन्त आमुराः सोमव्रतेषु जागृहि अवघ्नन् पवसे मृधो भसोमो अरावणः गच्छन्निन्द्रस्य निष्कृतम् महो नो राजाभरपवमानदिहि मृधाः राश्रेन्दो वीरवर्जसाः न त्वा सतम् च नः कृतो राधो दित्सम् तमामीनन् यत्पूनानो माघस्यसेः अवस्वेन्धो वृषा सुतः कृधीनो यशसो जने विश्वाभद्विषो जिहि अस्य ते सख्ये वयन्तवेन्दो जिम्न उत्तमे सा सख्यामामृतम् यतः या ते भीमान्यायुधादिग्मानि सन्ति धूर्वाणि रक्षा समस्य नो निदः